अथ अङ्गारकस्तोत्रम्। अस्य श्री अङ्गारकस्तोत्रस्य विरूपाङ्गिरस ऋषिः अग्निर्देवता गायत्री छन्दः भौमप्रीत्यर्थं जपे विनियोगः। अङ्गारकः शक्तिधरो लोहिताङ्गोधरासुतः कुमारो मङ्गलो भौमो महाकायो धनप्रदः ऋणहर्ता दृष्टिकर्ता रोगकृद्रोगनाशनः विद्युत्प्रभो व्रणकरः कामदोही धनहृत्कुजः सामगानप्रियो रक्तवस्त्रो रक्तायते क्षणः लोहितो रक्तवर्णस्य सर्वकर्मावबोधकः रक्तमाल्याधरो हेम कुण्डलिग्रहनायकः। नामान्येतानि भौमस्य य पठेत् सततं नरः ऋणं तस्य च दौर्भाग्यं दारिद्र्यं च विनश्यति धनं प्राप्नोति मुकुलं स्त्रियं चैव मनोरमाम् वंशोद्योतकरं पुत्रं लभतेनात्र संशयः योर्चयद्यन्निभौमस्य मङ्गलं बहुपुष्पकैः शर्वानश्यति पीडा च तस्य गृहकृता ध्रुवं। स्कन्दपुराणे अङ्गारकस्तोत्रं सम्पूर्णम्।